इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका वन्दना कश्यपः। आदौ मुख्य वार्ताः। अद्य राज्यसभायां 20 राज्यानां 59 सदस्यानां सौप्रस्थानिक समारोहः आसीत्। अत्रावसरे प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् संसदीय लोकतन्त्रे एतेषां योगदानं सदैव स्मरणीयं भविष्यति, सहैव राजनीतिक्षेत्रे कदापि पूर्णविरामः न भवति। लोकसभया अद्य एकं राष्ट्रं एकं निर्वाचनम् इत्याख्ये विधेयके परीक्षणरतायाः संयुक्त संसदीय समित्याः कार्यकालं विस्तारितम्। सर्वकारेण विमानसंस्थासु समान कार्यप्रणालीं सुदृढीकर्तुं नूतनाः निर्देशाः निस्तारिताः। विमानसंस्थाः आदिष्टाः यत् यात्रिभ्यः उचितसौलभ्यप्रदानाय विमानस्य आसनचयने न्यूनतम 60% आसनानि निःशुल्कं प्रापयेयुः इति। अद्य प्रातः गुजरातराज्यस्य मुद्रापोताश्रये जगलाडकी इति नामकः विशालः भारतीयपोतः खनिजतैलस्य 8,000 मीट्रिक टन परिमितम् उच्चगुणवत्तायुक्तं खनिजतैलं नीत्वा प्राप्तवान्। भारतीय ऋतुविज्ञान विभागेन अद्य छत्तीसगढ़ हिमाचलप्रदेश विदर्भ क्षेत्रेषु विद्युत गर्जन समेत्य झंझावातो भविष्यति इति आशंकाम् अभिलक्ष्य ऑरेंज अलर्ट इति संचेतना प्रख्यापिता। फ्रांस देशस्य पॉलिस डेस स्पोर्ट्स क्रीडांगणे ऑलिर्स मास्टर्स बैडमिंटन प्रतिस्पर्धायां पुरुष एकलवर्गे आयुष शेट्टी किरण जॉर्ज इत्येनं पराजित्य 16 चक्रे प्रविष्टवान्। अथ वार्ताः विस्तरेण। अद्य राज्यसभायां 20 राज्यानां 59 सदस्यानां सौप्रस्थानिक समारोहः आसीत्।
हमारे जो माननीय सांसद विदाई ले रहे हैं उनका तो योगदान रहा ही, और इसके लिए भी मैं उनका साधुवाद करता हूँ जो हमारे माननीय सांसद विदाई ले रहे हैं। लेकिन ये माननीय सांसद ऐसे हैं कि जिनको पुराने संसद के भवन में भी बैठने का मौका मिला और नए संसद भवन में भी बैठने का मौका मिला, उनको राष्ट्र के कल्याण के लिए अपना योगदान देने का अवसर मिला है। उनको इस नए सदन के निर्माण प्रक्रिया में और नए सदन की निर्णय प्रक्रिया में भी हिस्सा बनने का अवसर मिला है, वो एक विशेष उनके जीवन में नई स्मृति रहेगी।
अत्रावसरे प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् संसदीय लोकतन्त्रे एतेषां योगदानं सदैव स्मरणीयं भविष्यति, सहैव राजनीतिक्षेत्रे कदापि पूर्णविरामः न भवति, यतः एतेषाम् अनुभवः राष्ट्राय सदैव प्रासंगिको वर्तते। प्रधानमन्त्रिणा अवलोकितं यत् सौप्रस्थानिकसमारोहे सर्वे सदस्याः दलीय राजनीतितः पृथक् भूत्वा एकां समानां भावनां प्रदर्शयन्ति।
सदन अपने आप में बहुत बड़ी ओपन यूनिवर्सिटी, राष्ट्र जीवन की कई बारीकियों से परिचित होने का अवसर सदन में प्राप्त होता है। एक प्रकार से हमारी यहाँ शिक्षा भी होती है, हमारी दीक्षा भी होती है। ये 6 साल यहाँ जो रहने का अवसर मिलता है वो जीवन को गढ़ने का, राष्ट्र जीवन के घड़तर में योगदान का तो महत्व है ही है क्योंकि निर्णय प्रक्रिया का हिस्सा है, लेकिन स्वयं के जीवन को गढ़ने का भी एक अमूल्य अवसर होता है।
निवर्तमानस्य उपसभापतेः हरिवंश महोदयस्य उल्लेखं कुर्वन् प्रधानमन्त्री मोदी अवदत् यत् तेन अस्मिन् सदने दीर्घकालं यावत् स्वकीय उत्तरदायित्वानां निर्वहणस्य सुवर्ण अवसरः प्राप्तः। प्रधानमन्त्रिणा तस्य कार्यशैली मृदुभाषी किन्तु दृढनिश्चयी इति वर्णितम्।
हरिवंश जी को लंबे समय तक इस सदन में अपनी जिम्मेवारी निभाने का अवसर मिला है। बहुत ही मृदुभाषी, सदन को चलाने में सबका विश्वास जीतने का निरंतर जिन्होंने प्रयास किया, और मैंने देखा है कि संकट के समय ज्यादातर उपसभापति के ही जिम्मे आ जाता है कि भाई आप संभाल लेना, जरा एक लंबा एक्सपीरियंस होता है।
इति प्राक् सदनस्य सभापतिः सीपी राधाकृष्णन महोदयः अवदत् यत् प्रतिवर्षद्वये तृतीयांश सदस्यानां निवृत्तिः राज्यसभायाः घटनात्मक स्थैर्यं रक्षति, येन नूतन सदस्यानां कृते मार्गः प्रशस्तः भवति।
Retirement should not be viewed as an end, but as the beginning of new roles and responsibilities. Signifies the passing on of the baton of new members who will carry forward the legacy of this institution with fresh ideas, renewed energy and commitment. At the same time, the experience and wisdom gained by the retiring members during their tenure will continue to guide and inspire the next generation of parliamentarians.
विपक्षस्य नेता मल्लिकार्जुन खड़गे महोदयः स्ववक्तव्ये अवदत् यत् ये राजनीति क्षेत्रे सार्वजनिक जीवने च सन्ति ते देशसेवया कदापि श्रान्ताः भवन्ति न च निवृत्ताः। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसायते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। लोकसभया अद्य एकम राष्ट्रम एकम निर्वाचनम इत्याख्ये विधेयके परीक्षणरतायाः संयुक्त संसदीय समित्याः कार्यकालं 27-2000 वर्षाकालीन सत्रस्य अंतिम सप्ताहस्य प्रथम दिवसं यावत् विस्तारितम्। अस्य विधेयकस्य मुख्यलक्ष्यं लोकसभा राज्यसभा विधानसभानाञ्च निर्वाचनं युगपदेव सम्पद्येत इत्यस्ति। समित्याः अध्यक्ष पीपी चौधरी इत्येषः संविधान विधेयकं 24-2000 तथा च केन्द्रशासित प्रदेश विधि विधेयकं 24-2000 इति विषययोः संयुक्त समित्याः कालावधि विस्तारस्य प्रस्तावं प्रस्तुतवान्। सदने ध्वनिमतेन एतस्मै प्रस्तावाय सहमतिः प्रदत्ता। सर्वकारेण विमानसंस्थाः आदिष्टाः यत् यात्रिभ्यः उचितसौलभ्य प्रदानाय विमानस्य आसनचयने न्यूनतम 60% आसनानि निःशुल्कं प्रापयेयुः इति। नागरिकोड्डयन मन्त्रालयेन अद्य नागरिक उड्डयन महानिदेशालयस्य माध्यमेन यात्रिणां सौलभ्यं पारदर्शितां तथा च सर्वासु विमानसंस्थासु समान कार्यप्रणालिं सुदृढीकर्तुं नूतनाः निर्देशाः निस्सारिताः। मन्त्रालयेन निर्दिष्टं यत् एकेनैव पीएनआर इति क्रमेण यात्रां कुर्वन्तः यात्रिणः एकत्रैव उपवेशनीयाः, यथासंभवं च तेभ्यः समीपस्थ आसनानि प्रदातव्यानि। तत्र सूचितं यत् क्रीडा सामग्र्याः वाद्ययन्त्राणां च परिवहनसुविधा पारदर्शितया यात्रानुकूलरीत्या च प्रदातव्या। विमानसंस्थाभ्यः पालितपशूनां वहनविषये अपि स्पष्टाः नीतिनिर्माणार्थं निर्देशाः दत्ताः। सर्वकारेण यात्रिणाम् अधिकारैः सह सम्बद्धानां नियमानां कठोरतया पालनया अपि आदिष्टम्। रेलमंत्री अश्विनी वैष्णव अवोचत यत् वंदे भारतम रेलयानानि यात्रिकाणां सुरक्षां वर्धयितुं बहुभिः उन्नत सुरक्षा वैशिष्ट्ये युक्तानि सन्ति। अद्य लोकसभायां प्रश्नकाल समये अनुपूरक प्रश्नानां उत्तरं यच्छन् सः अवदत् यत् वंदे भारत एक्सप्रेस याने विशेषतः एंटी क्लाइम्बिंग इत्यस्य तन्त्रस्य प्रयोगः कृतः। एतस्य तन्त्रस्य मुख्यम् उद्देश्यं दुर्घटनायाः समये रेलकक्षः परस्परम् उपरि आरोहणं रोद्धुं तथा च यात्रिणां जीवनं रक्षितुम् अस्ति। मन्त्रिणां बलपूर्वकम् उक्तं यत् सर्वकारः रेलयात्रा सुरक्षिततरां कर्तुं कटिबद्धोः वर्तते। अद्य प्रातः गुजरात राज्यस्य मुन्द्रा पोताश्रये जगलाड़की इति नामकः विशालः भारतीय पोतः खनिजतैलस्य महत् परिमाणः नीत्वा प्राप्तवान्। एषः पोतः संयुक्त अरब अमीरात देशात् प्रायः 8,000 मीट्रिक टन परिमितम् उच्च गुणवत्तायुक्तं खनिजतैलम् आनयति। अस्मात् पूर्वं शिवालिक इति पोतः मुद्रानगरे तथा नन्दादेवी इति पोतः वाडिनार पोताश्रये अपि प्राप्तवन्तौ। पोतः अधिकारिणः तैल निक्षेपणस्य कार्यं सुचारुरूपेण प्रचालयन्ति, येन देशस्य परिष्करणशालासु तैव वितरणं शीघ्रं भवेत्। इज़राइल देशस्य रक्षामंत्री इज़राइल कार्ड्स अद्य सबलं प्रतिपादितवान् यत् इज़रायली सैन्येन ईरान देशस्य धीमन मंत्री इस्माइल खतीबः हतः। एतस्याः घटनायाः घोषणां कुर्वन् सः अधिकं विवरणं न दत्तवान्, किन्तु उक्तवान् यत् अद्य सर्वेषु युद्धक्षेत्रेषु भीषणानि आक्रमणानि भवितुं शक्नुवन्ति।